इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झा। अथ वार्ताः। केन्द्रीय गृहमन्त्री अमितशाहः अब्रवीत् यत् भारतं पाकिस्तानेन सह सिन्धु जलसन्धिं कदापि न पुनः स्थापयिष्यति इति। सः अवदत् यत् पाकिस्तानं प्रति समधिकं जलं यद्वहति तज्जलं वलयितुं राजस्थाने कुल्यायाः विनिर्माणं भविष्यति। एकस्मिन् वार्तापत्रस्य साक्षात्कारे गृहमन्त्री अवदत् यत् भयोत्पादनस्य विरुद्धं प्रशासनस्य शून्य सहिष्णुतायाः नीतिः अक्षुण्णः वर्तते। वृद्धेभ्यः दिव्यांगजनेभ्यः दीयमानं द्रव्यात्मकम् उत वार्धक्य सहायता राशिः 700 रूप्यकेभ्यः वर्धितम्। मुख्यमन्त्री नीतीशकुमारः अवोचत् यत् अग्रिम मासात् आरभ्य एतेभ्यः लाभार्थिभ्यः प्रतिमासं 100+ यावत् रूप्यकाणि लप्स्यन्ते। नागरिक विमान पत्तन महानिदेशालयः एयर इंडिया इति संस्थायै निर्देशं दत्तवान् यत् गभीरतया नियमोल्लङ्घनमुद्दिश्य 3 अधिकारिणः तत्क्षण प्रभावेन निष्कासयन्तु इति। आन्तरिक अनुशासनात्मक कार्याचरणाय च निर्देशं दत्तवान्। सहैव हि परिणामानां प्रस्तुतिः 10 दिनेषु निवेदयत्व इति निर्देशम् अयच्छत्। क्षेत्रीय ऐक्यस्य महत्वपूर्णेन भावेन ईरान देशे विलम्बितान् नेपाल श्रीलंका देशयोः नागरिकान् प्रत्यावर्तने समावेशयितुम् ऑपरेशन सिन्धु इत्यस्यान्तर्गतं भारतं स्वस्य निर्वासन प्रयासान् प्रावर्तयत्। एक्स इत्यत्र प्रदत्ते सन्देशे उक्तमस्ति यत् नेपाल श्रीलंका सर्वकारयोः औपचारिक अनुरोधानुगुणम् एतत् कार्यम् अभवत्। अवधेयास्पदं वर्तते यत् ईरान देशात् ऑपरेशन सिन्धु द्वारा स्वनागरिकाणां साहाय्यार्थं नेपाल श्रीलंका देशौ भारतं प्रति कृतज्ञतां प्रकटितवन्तौ। नेपालस्य विदेशमन्त्री आर्जू राणा देउबा नेपालीय छात्राणां साहाय्यार्थं डॉ एस जयशंकराय धन्यवादं ज्ञापितवती। भारतीय ऋतु विज्ञान विभागेन अग्रिमेषु दिनेषु पंजाब हरियाणा राजस्थानस्य च नैकेषु भागेषु च वृष्टेः पूर्वानुमानं कृतम्। आकाशवाण्या सह वार्तालापं कुर्वन् भारत ऋतु विज्ञान विभागस्य वरिष्ठः वैज्ञानिकः आर.के. जेणामणिः अवदत् यत् आगामिषु दिनेषु दिल्लीं समेत्य अन्येषु क्षेत्रेषु वृष्टिकालः आयास्यति इति।
कंडीशन जैसे जो विंड का कंडीशन है और जैसे जैसे आ रहा है क्लाउड बेल्ट अप तो कंडीशन फिर अभी फेवरेबल है कि मानसून और आगे बढ़ेगा और कुछ राजस्थान का हिस्सा और पंजाब हरियाणा भी आएगा 2 दिन में और आगे 2 दिन है उसमें राष्ट्रीय राजधानी दिल्ली आ सकता है दक्षिण पश्चिम मानसून।
भारतीय ऋतु विज्ञान विभागेन मध्य प्रदेश कोंकण गोवा मध्य महाराष्ट्र गुजरात पूर्वीय राजस्थान दक्षिण हरियाणा पंजाब उत्तर प्रदेश हिमाचल प्रदेश उत्तराखंड बंगाल सिक्किम इत्येतेषु राज्येषु अतिवृष्टेः अनुमानं कृतम्। अमेरिका देशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः अवदत् यत् ईरान देशस्य फोर्डो स्थलं समेत्य 3 परमाणुस्थलेषु अत्यन्तं सफलम् आक्रमणं कृतम्। एकस्मिन् सोशल मीडिया पोस्ट इत्यस्य माध्यमेन सः अवोचत् यत् अमेरिका देशः फोर्डो नातान्स इफ्तहान इत्येतेषु स्थलेषु ईरानस्य परमाणु सुविधासु आक्रमणं कृतवान्। तस्य घोषणा दर्शयति यत् संयुक्त राज्य अमेरिका आधिकारिक रूपेण इज़राइल देशेन सह ईरान देशस्य उपरि आक्रमणे सम्मिलितः अस्ति। ब्राजील देशे सांता कैटरीना राज्यस्य दक्षिणे प्राइया ग्रांडे नगरे वायुयान दुर्घटनायां गतरात्रौ न्यूनातिन्यूनम् 8 जनाः मृत्युमुपगताः। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकी इति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः अद्य मध्याह्ने 12:30 भविष्यति। भवन्तः सर्वे यथाकालं श्रोतुं प्रभवन्ति इति वार्ताः।